इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। सर्वोच्च न्यायालयेन सर्वेभ्यः उच्चन्यायालयेभ्यः त्रिषु मासेषु एव रक्षिताः आदेशाः घोषयितुं निर्दिष्टम्। शिक्षामन्त्रिणा धर्मेन्द्रप्रधानेन परीक्षापराधविरुद्धं कठोरकार्याचरणाय योग्यच्छात्राणां रक्षणाय च आश्वासितम्। पीएम सूर्याघर योजनया प्रमुखं लक्ष्यं प्राप्तम्। अस्मिन् प्रायः 40 लक्षाणि गृहाणि रूफटॉप सोलर इत्येतम् अंगीकृतवन्तः। भारत ऋतुविभागेन देशे जून मासे सामान्यात् न्यूनं प्रावृत्त वृष्टेः, अनेकेषु राज्येषु सामान्यात् अधिकं यावत् उष्णतरङ्गस्य स्थितेः च सम्भावना प्रकटिता। अपि च आईपीएल क्रिकेट क्रीडायाम् अद्य सायंकाले महाराजा यादवेन्द्र सिंह अन्तर्राष्ट्रिय क्रिकेट क्रीडाङ्गणे न्यू चण्डीगढ़ नगरे महत्वपूर्णे क्वालिफायर द्वितीय स्पर्धायां गुजरात टाइटन्स दलं राजस्थान रॉयल्स दलं सम्मुखीकरिष्यति। अद्य सर्वोच्च न्यायालयेन सम्पूर्णे देशे सर्वेषाम् उच्च न्यायालयानां कृते निर्देशः प्रदत्तः यत् आरक्षित निर्णयाः त्रिमासाभ्यन्तरे एव प्रदातव्यम्। सर्वोच्च न्यायालयेन उक्तं यत् निर्णय घोषणायां विलम्बः वादिनां कृते अपरिवर्तनीयां हानिं जनयितुं शक्नुवन्ति। व्यक्तिगत स्वातन्त्र्य सम्बद्धेषु प्रकरणेषु शीघ्र निर्णयस्यावश्यकतायाः उपरि बलं प्रदत्तम्। मुख्य न्यायाधीशः सूर्यकान्तः तथा न्यायाधीशः जाय माल्या बागची इत्येतयोः पीठेन उक्तं यत् प्रतिभूत्याः आवेदनविषये निर्णयः तस्मिन्नेव दिने घोषणीयः। यदि निर्णयम् आरक्षितं भवति तर्हि तत् अग्रिमदिने एव प्रकाशितं भवेत्। सर्वोच्चन्यायालयेन अन्येऽपि अनेकाः निर्देशाः प्रदत्ताः। न्यायालयेन उक्तं यत् बन्धनमुक्तेः अथवा दण्डस्थगनस्यादेशः निर्णयघोषणानन्तरं त्वरितं कारागृहप्राधिकारिभ्यः प्रेषणीयः। केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानः अद्य उक्तवान् यत् प्रश्नपत्रलीकप्रकरणम् अतीव दुर्भाग्यपूर्णमासीत्। डीडी न्यूज इत्यनेन सह विशेष संवादे श्रीप्रधानः आश्वासितवान् यत् पुनः परीक्षायाः प्रक्रिया सम्यक् व्यवस्थितरूपेण विना कस्यापि दोषेन च सम्पन्ना भविष्यति।
जो घटना हुई है ये अत्यंत दुर्भाग्यजनक है, नहीं होनी चाहिए था। अभी दोबारा जब हम लोगों ने री नीट की घोषणा किया है और री नीट सुव्यवस्थित हो जाए, इसमें निर्भुलता के साथ हो, ये अभी हमारा दायित्व है। इस काम पे सभी का सहयोग हम अपेक्षा रखते हैं।
अस्मिन् विषये सः सर्वेषां सहयोगम् अपि याचितवान्। छात्रान् सम्बोधयन् प्रधानः तान् आश्वासितवान् यत् प्रशासनं तेषां चिन्ताम् अवगच्छति तथा च तेषां विश्वासः आहतः अभवत् इति स्वीकरोति। सः अवदत् यत् अधिकारिणः तदर्थं कठोरः निर्णयः स्वीकृतवन्तः यत् तेन इच्छन्ति यत् एकस्यापि योग्यस्य छात्रस्य भविष्यं परीक्षापराधीनां हस्ते अथवा कस्यापि प्रकारस्य दुराचारस्य कारणेन पीडितं न भवेत्।
छात्रों को आश्वस्त करना चाहते हैं कि जो गलती हुई है, हमारी ट्रस्ट को ब्रिज किया गया है, जो रक्षक था वही भक्षक हुआ, जो शिक्षक को हमने जिम्मेवारी दिया था क्वेश्चन बनाने के लिए, उन्होंने ही कॉम्प्रोमाइज हुआ है, उन्हीं के कारण ये अव्यवस्था शुरू हुई है। हमने कठोर निर्णय किया कि हमने एक भी सही विद्यार्थी के हक को परीक्षा माफियाओं के हाथ में सौंपना नहीं चाहते थे, उनके षड्यंत्र की शिकार नहीं होना चाहते थे। हम बच्चों की मानसिक स्थिति को सम्मान करते हैं, उनको संभालना चाहते हैं और हमको एक एरर फ्री एग्जामिनेशन देने का पूरा हमारी प्रयास।
गुणवत्तायाः पारदर्शितायाश्च विषये सबलं प्रतिपादयन् सः अवदत् यत् परीक्षा व्यवस्थायां निष्पक्षतां स्थापयितुं निर्णयः कृतः। मन्त्रिणा पुनरपि आश्वासितं यत् परीक्षा प्रक्रियायाः विषये वर्धमानचिन्तायाः मध्ये त्रुटिमुक्तां परीक्षां कारयितुं सर्वविधप्रयत्नः क्रियते। केन्द्रीय माध्यमिक शिक्षा परिषदः पुनर्मूल्यांकन पोर्टल इत्यत्र विद्यमानानां तान्त्रिक समाह्वानानां विषये उद्भूतानां चिन्तायाः प्रतिक्रियारूपेण शिक्षामन्त्रिणा उक्तं यत् CBSE सर्वासां तान्त्रिक समाह्वानानां समाधानार्थं सक्रियतया कार्यं करोति तथा च छात्राणां कृते पारदर्शिकां त्रुटिमुक्तां च डिजिटल मूल्यांकन प्रक्रियां सुनिश्चेतुं करिष्यति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज़ ऑन एआईआर चलदूरभाषी यतन्त्रांशे अपि उपलब्धो भविष्यति। दिल्ली सर्वकारः नीट 26,000+ परीक्षायाम् उपस्थितेभ्यः अभ्यर्थिभ्यः सर्वेषु दिल्ली परिवहन निगमस्य डीटीसी बस यानेषु निःशुल्क यात्रायाः सुविधां प्रदास्यति। परीक्षा अग्रिममासस्य 21 दिनांके भविष्यति। सामाजिकान्तर्जालीय पटले दिल्ली राज्यस्य मुख्यमंत्री रेखा गुप्ता अवदत् यत् अभ्यर्थिनः स्वस्य प्रवेशपत्रं प्रदर्शयित्वा डीटीसी बस यानेषु निःशुल्कं यात्रां कर्तुं शक्नुवन्ति। भारतेन स्वच्छ ऊर्जा यात्रायाम् ऐतिहासिकं सोपानम् आरोहितम्। केन्द्रीय नवीन पुनर्नवीकरणीय ऊर्जा मंत्री प्रह्लाद जोशी अवदत् यत् पीएम सूर्या घर योजनायाः अन्तर्गतम् अधुना 40,00,000 यावत् गृहाणि रूफटॉप सोलर इत्यनेन माध्यमेन शक्तिकृतानि सन्ति। सः अग्रे अवदत् यत् अक्षय ऊर्जा उपक्रमात् अधिकतया एषा परिवर्तनात्मक योजना नागरिकान् विद्युत उपभोक्तृत्वात् विद्युत उत्पादकत्वेन परिवर्तयति। एषा योजना परिवारान् विद्युत् व्ययं न्यूनीकर्तुं प्रशासकीय अनुदानात् लाभं प्राप्तुं विद्युत् विल इति शून्यं कर्तुं च समर्थयति। प्रत्येकस्मिन् सौरशक्तियुक्त गृहेण देशः ऊर्जा सुरक्षां प्रति पर्यावरण सुस्थिरतां प्रति स्वावलम्बनस्य विकसित भारतस्य दृष्टिकोणं प्रति गच्छति इति मन्त्रिणा अवधानं प्रदत्तम्। भारत ऋतु विभागेन देशे जून मासे सामान्यात् न्यूनं प्रावृत वृष्टेः अनेकेषु राज्येषु सामान्यात् अधिकं यावत् उष्णतरंगस्य स्थितेः च संभावना प्रकटिता। प्रसारमाध्यमैः सह वार्तालापं कुर्वन् आईएमडी इत्यस्य महानिर्देशकः डॉ मृत्युंजय महापात्रा अवदत् यत् देशे जून मासे सामान्य वृष्टिः सामान्यात् न्यूनं यावत् भवितुमर्हति। सः अवदत् यत् अस्मिन् काले केवलं देशस्य केषुचित् भागेषु यथा उत्तरपश्चिमे, उत्तरपूर्वे, दक्षिणद्वीपीये च सामान्यात् अधिकं वा वर्षा भवितुमर्हति। सः इतोपि सूचितवान् यत् जून मासे देशस्य अधिकांशेषु भागेषु अधिकतमं तापमानं सामान्यात् अधिकं प्रति भवितुमर्हति। श्रीमहापात्रा अवदत् यत् जून मासे उत्तरप्रदेशस्य, हरियाणाराज्यस्य, पंजाबराज्यस्य, बिहारस्य, ओडिशाराज्यस्य, छत्तीसगढस्य, गुजरातस्य च अनेकेषु भागेषु सामान्यात् अधिकम् उष्णतरंगस्य स्थितिः भवितुमर्हति। केन्द्रीय वस्त्रोद्योग मंत्री गिरिराजसिंहः अद्य अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे भारतं सुदृढ अर्थव्यवस्थारूपेण उद्भूतमस्ति तथा च वस्त्रोद्योग क्षेत्रे परिष्कारैः नीतिसमर्थनेन च द्रुतगत्या वृद्धिः साधिता अस्ति। आन्ध्रप्रदेशस्य द्विदिवसीय यात्रायां मन्त्रिणा कृष्णामण्डलस्य मल्लवल्ली औद्योगिक उद्याने मोहन स्पिनटेक समवायस्य भ्रमणं कृतम्। सः अवदत् यत् भारतस्य वस्त्र आपण मूल्यं सम्प्रति 15,00,000 कोटि रूप्यकाणि अस्ति तथा च 2030-वर्षपर्यन्तं 25,00,000 कोटि रूप्यतोप्यधिकं कर्तुं सर्वकारः कार्यं कुर्वन् अस्ति। कर्णाटकस्य राज्यपालः थावरचन्द गहलोतः अद्य बेंगलुरुनगरे मुख्यमन्त्रिणः सिद्धारमैया वर्यस्य त्यागपत्रं स्वीकृत्य तत्कालीनेन प्रभावेण मन्त्रिमण्डलं विघटयत्। परञ्च यावत् कार्यवाहक मुख्यमन्त्रिरूपेण वैकल्पिक व्यवस्था न भवति तावत्पर्यन्तम् अस्मिन् काले किमपि निर्णयं न स्वीकर्तुं सहैव अस्मिन् पदे यथावदेव भवितुम् आदिष्टम्। सिद्धारमैयावर्यः ह्यः लोकभवने स्वस्य त्यागपत्रं समर्पितवान् आसीत्। अन्त्यक्रीडावार्तायां आईपीएल क्रिकेट क्रीडायाम् अद्य सायंकाले महाराजा यादवीन्द्र सिंह अन्ताराष्ट्रिय क्रिकेट क्रीडाङ्गणे न्यू चण्डीगढ़ नगरे महत्वपूर्णे क्वालिफायर द्वितीय स्पर्धायां गुजरात टाइटन्स दलं राजस्थान रॉयल्स दलं सम्मुखी करिष्यति। क्रीडायाः आरम्भः सायं 7:30 भविष्यति। विजेतृदलं रविवासरे अहमदाबादस्य नरेन्द्र मोदी क्रीडांगणे अन्तिमस्पर्धायां रॉयल चैलेंजर्स बेंगलुरु इत्यनेन दलेन सह स्पर्धिष्यति। इति वार्ताः।